नमस्तुभ्यं प्रसीद मम भास्कर। दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते। सप्तास्वरधमारूढं प्रचण्डं कश्यपात्मजम्। श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम्। लोहितं रथमारूढं सर्वलोकपितामहम्। महापापहरं देवं तं सूर्यं प्रणमाम्यहम्। त्रैगुण्यं च महासूरं ब्रह्मविष्णुमहेश्वरम्। बृंहितं तेजसां पुञ्जं वायुमाकाशमेव च। प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम्। मन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम्। एकचक्ररथं देवं तं सूर्यं प्रणमाम्यहम्। तं सूर्यं जगत्कर्तारं महातेजःप्रदीपनम्। महापापहरं देवं तं सूर्यं प्रणमाम्यहम्। तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम्। महापापहरं देवं तं सूर्यं प्रणमाम्यहम्। सूर्याष्टकं पठेन्नित्यं ग्रहपीडाप्रणाशनम्। अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत्। आमिषं मधुपानं च यः करोति रवेर्दिने। सप्तजन्म भवेत् रोगी जन्म जन्म दरिद्रता। स्त्रीतैलमधुमांसानि ये त्यजन्ति रवेर्दिने। न व्याधि शोकदारिद्र्यं सूर्यलोकं स गच्छति। इति श्री सूर्याष्टकम्।